समीक्षित कारितेयम् जलपन दीवा निज गिरानन पक्षिणों पे अस्तामचिन्त्य महिमा जिन संस्तवस्ते भवतो भवतो जगन्ति तीव्रातपोपहत पान्थ जरान्निदाघे प्रीणाति पद्म सरसः सरसो निलोपे कर्म बंधा सत्योभुजंगम मया इव मध्य भाग अभ्यागते वन शिखंडिनी चंदनस्य चन्तरेव मनुजाः सहसा जिनेन्द्र रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि गोस्वामिनस्फुरित तेजसि दृष्टमात्रे पशवः प्रपलायमाने तन्तारको जिन कथं भविनान्त एव हृदयेन यदुत्तरन्तः यद्वा धृतस्तरति यज्जलमीश नून अन्तर्गतस्य मरुतः स किरानुभाव यस्मिन्हर प्रभृतयोऽपि हत प्रभावाः सोऽपि त्वया रतिपदिः क्षपितः क्षणेन विद्यापिताहुतभुजः पयसाथ येन तदपि दुर्धर्वाडवीन स्वामिन्ननल्पगरिमाणमपि प्रपन्नास् त्वाञ्चन्तवः कथमहोहृदये दधाना जन्मो दधिन् लघुतरन्त्यतिलाघवेन चिन्त्यो न हन्त महे तां यदि वा प्रभाव कथं किल कर्म चौरा लोषत्यमत्र यदि वा शिशिरापि लोके नीलद्रुमाणि विपिनानि न किं हिमानि सदा परमात्मरूप अन्वेषयन्ति हृदयाम्बुजकोशदेशे भूतस्य निर्मलरुचेर्यदि वा किमन्य दक्षस्य भव पदन ननु कर्णिकाया ध्यानाज्जिनीश भवतो भविन क्षणेन परमात्मदशां व्रजन्ति तीव्रानलादुपलभावमपास्य लोके चामीकरत्वमचिरादिव धातु भेदा कथं तदपि नाशयसि शरीरम् एतत् स्वरूपमथ मध्य विवर्तिनो हि यद्विग्रहं प्रशमयन्ति यन् त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभाव पानीयमप्यमृतमित्यनुचिन्त्यमानम् विकारमपाकरोति त्वामेव वीततमसं परवादिनोऽपि हरादिधिया प्रपन्ना किं काच कामलिभिरीशसितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेन तन्मोपदेश समये सविधानुभावा दासांजनो भवति ते करुणप्यशोकः अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः मुखवृन्तमेव विश्वपतत्य विरलासुरपुष्पवृष्टिः त्वद्गोचरे सुमनसां यदि वा मुनीश एव हि बन्धनानि स्थाने गभीरहृदयोदधि सम्भवायाः गिरः समुदीरयन्ति पीत्वा यतः परमसम्मदसङ्गभाजो भव्या व्रजन्ति तरसाप्यजरामरत्वम् समुत्पतन्तु मन्ये वदन्ति शुचयः सुरचामरौघाः यस्मै नतिं विदधते मुनिपुङ्गवाय गतयः खलु शुद्धभावाः श्यामं गभीरगिरमुज्ज्वलहेमरत् भव्यशिखण्डिनस्त्वाम् आलोकयन्ति रभसेन नदन्तमुच्चैः चामीकराद्रिशिरसीव नवाम्बुवाः क्षितिद्युतिमण्डलेन लुप्तच्छदच्छविरशोकतरुर्बभूव सान्निध्यतोऽपि यदि वा तव वीतराग व्रजति को न सचेतनोऽपि भुभुः प्रमादमवधू भजध्व मीर मागत्य निर्वृति पुरीं प्रति सार्थ वाह एतन् निवेदयति देव जगत्त्रयाय नभः सुरदुन्दुभिस्ते उद्योतितेषु भवता भुवनेषु नाथ ताराम् विहताधिकार मुक्ता कलाप कलितोल्लसितात् पत्र व्याजात्रिधा धृत तनुर्ध्रुवमभ्युपेतः जगत्त्रयपिण्डितेन कान्तिप्रतापयशसामिव सञ्चयेन माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन् नभितो विभासि दिव्यस्रजो जिननमत्त्रिदशाधिपाना उत्सृज्यरत् रचितानपि मौलिबन्धान् पादौ शयन्ति भवतो यदि वापरत्र तत्सङ्गमे सुमनसो नरमन्त एव विपराङ्मुखोऽपि यत्तारयस्य सुमतो निजपृष्ठलतान् युक्तं हि पार्थिवनृपस्य सतस्तवैव कर्म विपाक शून्य विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वम् किं वाक्षर प्रकृतिरप्यलिपिस्त्वमीश अज्ञानवत्यपि सदैव कथञ्चिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतु भांसि रजांसि रोषा पितानि कमठेन शठेन यानि छायापितैस्तवननाथ हताहताशु ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा यत्कर्जदूर्जित घनौघमदभ्रभीम रश्यत्तरिन् मुसलमांसलघोरधारम् दैत्येन मुक्तमथ दुस्तरवारिदध्रे तस्य जिनदुस्तरवारिकृत्यम् हस्तोर्ध्वकेशविकृताकृतिमर्त्यमण्डप प्रालम् भयदवक्त्रविनिर्यदग्निः प्रीतव्रजः प्रतिभवन्तमपीरितो यः सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः त्रिसंज्ञ माराधयन्ति विधिवत् विधुतान्यकृत्याः भक्त्युल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विभो भुवि जन्म भाज अस्मिन् अपार भववारि निधौ मुनीश मन्येन मे श्रवण गोचरताङ्गतोऽसि आकर्णिते तु तव गोत्र पवित्र मन्त्रे किं वा विपद् विषधरी सविधन् समेति तव पादयुगन्नदेव मन्ये मया महितमीहितदानदक्षम् तेनेह जन्मनि मुनीश परा भवाना चातु तदमहं मथिताशयाना नूनं नमोहतिमिरावृतलोचनेन कृदपि प्रविलोकितोऽसि मर्मा विधो विधुरयन्ति मामनर्थाः प्रोद्यप्रबन्धगतयः कथमन्यथैते विधृतोऽसि भक्त्या जातोऽस्मि तेन जनबान्धवदुःखपात्रम् यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः जनवत्सल हि शरण्य कारुण्यपुण्यवसदे वशिनां वरेण्य भक्त्यानते मयि महेश दयां विधाय तत्परतां विधेहि निःसङ्ख्यसारशरणं शरणं शरण्य मासाद्यसादितरिप प्रथितावदानम् त्वत्पादपङ्कजमपि प्रणिधानवन्द्यो वन्द्योऽस्मि चेत् भुवनपावनहाहतोऽस्मि ताखिल वस्तु सार संसार तारक विभो भुवनाधिनाथ त्रायस्व देव करुणा हृद मां पुनीः व्यसनाम्बुराशेः यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणा भक्तेः फलम् किमपि सन्ततसञ्चितायाः तन्मे तदेकशरणस्य शरण्यभूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेति धियो विधिवत् जिनेन्द्र सात्रोल्लसत् पुलक कञ्चुकिताङ्गभागाः प्रतिबिंब निर्मल मुखाम्बुज बद्ध लक्ष्यां ये संस्तवन तव विभोर चयन्ति भव्याः। जननयन कुमुद चंद्र प्रभास्वराः स्वर्ग संपदो भुक्त्वा ते विगलित मल निचया अचिरान् मोक्षं प्रपद्यन्ते अचिरान् मोक्षं प्रपद्यन्ते अचिरान् मोक्षं प्रपद्यन्ते।